एमएस रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल नवलपरासी पर्दाघाट सुस्ता पूर्व नवलपुर जनपदस्य विनय नद्याहासेतौ भूमौ विशीर्णे क्षति पूर्णत अवरूद्ध पूर्व पश्चिम राजमार्ग संचालितो वर्तते। जनपदस्य विनय त्रिवेणी ग्रामपालिकायाः दुम्कीवासवर्तिन्यः विनय नद्याः सेतोः भञ्जनात् यातायातम् पूर्णतः अवरुद्धम् आसीत्। सम्प्रति मार्गान्तरणस्य निर्माणस्य कार्यसमाप्तेः पश्चात् मार्गः पुनः संचालितो स्थिति प्रहरणा ज्ञापितम् वर्तते। ह्यः सायम् सेतोः मध्यभागस्य अधोगमनेन भञ्जनात् यातायातम् पूर्णतः अवरुद्धम् आसीत्। नवलपुर प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षकस्य जेसी शाहस्य अनुसारेण ज्यामिरे चोक स्थानात् त्रिवेणी स्थानस्य क्रसर मार्गेण सिजी चोक डाँडाचौर होङ्सी गेट चेती स्थानैः वैकल्पिक मार्ग संचालितो वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयेन अग्नि प्रज्वालन समये उष्णतायाः प्रदायकानाम् अन्येषाम् उपकरणानाम् प्रयोग समये च सावधानताम् अवलम्बितुम् अनुरुद्धम् वर्तते। मन्त्रालयेन ह्य विज्ञप्तिम् प्रकाश्य शैत्यस्य समये शरीरे प्रकोष्ठे च उष्णतामानेतुम् प्रयुज्यमानानाम् यन्त्रोपकरणानाम् उपयोगे सावधानताम् अवलम्बितुम् अनुरुद्धम् वर्तते। मन्त्रालयस्य प्रवक्त्रा डाक्टर प्रकाश बुढाथोकी इत्यनेन प्रकाशितायाम् विज्ञप्तौ उष्णतामानेतुम् प्रयुज्यमानानाम् यन्त्रोपकरणानाम् प्रयोगे गृहे वातायन व्यवस्थायाः अभावे श्वास प्रश्वास प्रवृत्तिनाम् स्वास्थ्य समस्यानाम् सम्भवात् प्राणाः अपि संकटे पतितुम् शक्नुवन्ति इत्यतः सावधानताम् अवलम्बितुम् अनुरुद्धम् वर्तते। वर्तमानार्थिक वर्षस्य मार्गशीर्ष मासे वार्षिकोपभोक्ति मुद्रास्फीति चतुर्दश मासानाम् उच्चैः प्राप्तास्ति। गत मार्गशीर्ष मासे वार्षिक बिन्दुगतोपभोक्ति मुद्रास्फीति 0.075 षड्भिः अंकैः स्थिता आसीदिति नेपाल राष्ट्रकोषेण ज्ञापितम् वर्तते। गतार्थिक वर्षे अस्मिन् समये वार्षिक बिन्दुगतोपभोक्तृ मुद्रास्फीति 0.975 अंकैः आसीत्। पृथ्वी नारायण शाह विदस्य 73 जन्म जयन्त्या अवसरे अद्य आराष्ट्रम् राष्ट्रियैकता दिवस समायोज्यमानोऽस्ति। अवसरेऽस्मिन् सिंहप्रासादस्य अग्रे विद्यमानायाम् पृथ्वीनारायण शाहस्य प्रतिमायाम् माल्यार्पणम् कृत्वा तस्य योगदानस्य स्मरणम् विधीयते। 1977 वैक्रमाब्दस्य पौषमासस्य 27 दिवसे गोर्खाराज्ये लब्धजन्मना पृथ्वीनारायण शाहविदेन लघुनी लघुनी द्वाविंशत्याम् चतुर्विंशत्याम् वा भागेषु विभक्तानि राज्यानि एकीकृत्य आधुनिक नेपालः निर्मितः आसीत्। तात्कालिकीम् अवस्थाम् विचार्य पृथ्वीनारायण शाहविदेन उपदिष्टः दिव्योपवि देशः अधुनापि यथावत् सान्दर्भिकः अस्तीति हेतोः असौ दूरदृष्टियुतः राजा आसीतीति तस्य योगदानस्य प्रशंसा क्रियते। प्रधानमन्त्री केपी शर्मा ओली निगदति वृत्त्युपार्जने निर्यातवृद्धौ च योगदानम् दत्तवत् हस्तकलाक्षेत्रम् सदैव सर्वकारस्य प्राथमिकतायाम् वर्तते। नेपाल हस्तकला महासंघस्य 44वां वार्षिक साधारण सभायाः उद्घाटनम् विदधानः पूर्वेद्युः प्रधानमन्त्री ओली हस्तकलाक्षेत्रेण देशे वृत्त्युपार्जनानाम् सर्जनम् उद्यमशीलतायाः आत्मविश्वासस्य निर्यातस्य च वर्धनम् च करिष्यते इत्यतः एतदर्थम् आत्मना सदैव सहयोगो विधास्यते इति अभासत। महासंघस्य अध्यक्ष प्रचण्ड शाक्य सर्वकारेण सार्वजनिक निकायेषु स्वदेशीयानाम् वस्तूनाम् प्रयोगस्य अनिवार्यतायाः विषये निर्देशिका पारितेति कृत्वा स्वागतम् विदधान अस्य क्रियान्वयनाय बलम् प्रादात्। हस्तकलाक्षेत्रेण प्रत्यक्षतया परोक्षतया च 11 लक्षाणि मृत्युपार्जनानि सृष्टानि सन्ति। 11 वस्तूनाम् निर्यातश्च विहितोऽस्ति इति ज्ञापितम् वर्तते। प्रधानमन्त्री केपी शर्मा ओली पेयजल मन्त्रालयस्य सुधारस्य कार्याणां भावी योजनायाश्च विषयं जिज्ञासितवान् वर्तते। सिम्हप्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य सम्भूते विमर्शने पेयजल मन्त्री प्रदीप यादवः, सचिवः प्रमिलादेवी वज्राचार्यश्च मन्त्रालयस्य अवस्थायाः, प्रगतेः क्रियान्वयने दृष्टानां समस्यानाम्, आगामिन्याः योजनायाश्च विषयान् प्रस्तुवताम्। विमर्शने मेलंची पेयजलायोजनायाः क्रियान्वयनस्य अवस्थायाः, प्रगतेश्च विषयेषु समसूचितम् आसीत्। तदवसरे प्रधानमन्त्री ओली जनतायै सहजतया सुलभतया च शुद्ध पेयजलस्य प्राप्तेः वातावरण सर्जनार्थं सम्बद्धान् सर्वान् निरदिशत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सह प्रधानमन्त्री णा केपी शर्मा ओलिना शिष्टाचार मेलवार्ता विहितास्ति। शीतल निवास भर्तिनी राष्ट्रपति भवने ह्य सम्भूते मेलने देशस्य सामयिक विषयेष् विमृष्टमिति प्रधानमन्त्रिणः नैज सचिवालयेन ज्ञापितं वर्तते। तदवसरे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया, मुख्य सचिवः एकनारायण अर्यालः, अन्य अधिकारिणश्च सहभागिनः आसन्। सांविधानिका योगानां संघटनस्य उद्देश्यपूर्तिं यावत् आयोगेभ्य नैरन्तर्यं प्रदेयमिति आयोगानाम् अध्यक्ष्याः बलं ददति। संघीयता सबलीकरण सम्बद्धता समितेः ह्यस्तनोपवेशे संविधान प्रारभणस्य दश वर्षानन्तरं आयोगानां पुनरवलोकनं करिष्यते इति सांविधानिक व्यवस्थायाः विषये आयोगानां धारणायाः ग्रहणस्य क्रमे अध्यक्ष्याः लक्षितवर्गस्य उद्देश्यपूर्तिं यावद् आयोगानां निरस्तीकरणं न कर्तव्यमिति उक्तवन्तः। विमर्शने राष्ट्रिय महिलायोगस्य अध्यक्षा कमला पराजुली, राष्ट्रिय दलितायोगस्य अध्यक्ष देवराज विश्वकर्मा, राष्ट्रिय समावेशी आयोगस्य कार्यवाहक अध्यक्ष विष्णुमाया ओझा, आदिवासी जनजाति आयोगस्य अध्यक्ष रामबहादुर थापा मगर, मधेसी आयोगस्य अध्यक्ष विजय कुमार दत्त, थारवा आयोगस्य अध्यक्ष विष्णु प्रसाद चौधरी, मुस्लिम आयोगस्य अध्यक्ष समीम मिया अन्सारी च सहभागिनः आसन्। रोल्पा जनपदस्य त्रिवेणी ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य सिम्पानीस्थाने ह्य जीपयानस्य दुर्घटनायाम् एको जनः मृतोऽस्ति। दुर्घटनायाम् त्रयो जनः आहताः वर्तन्ते। रोल्पा जनपदस्य जुंगारस्थानात् जनपदं प्रति प्रस्थीयमानं जीपयानं दुर्घटितम् आसीदिति प्रहरिणा ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा जलवायु परिवर्तनस्य प्रभावस्य न्यूनीकरणाय नेपालेन विश्वस्मिन् विश्वे सन्देशः प्रसारणीयः इति बलं ददाति। ह्य दल केन्द्रीय कार्यालये आयोजिते वातावरण सम्बद्ध कार्यक्रमे सभापतिः देउवा एवं बलं प्रादात् इति समाचारः।